नमस्कारः सर्वेषां नूतनन्यायवर्गे. अद्य अस्माकं वर्गे केवलं पुनरवलोकनम् इति भवेत्, यतोहि वयम् एतावता बहून् विषयान् दृष्टवन्तः, बहून् सिद्धान्तान् अवलोकितवन्तः, तेषां पुनःस्मरणं भवतु इति कृत्वा अस्मिन् सप्ताहे पुनरावर्तनवर्गः इति अस्ति. तर्हि अस्तु, नूतनतया कोऽपि अस्ति वा? राधिका भगिनी.
नमस्कारः भगिनी, राधिका अस्मि.
नमस्कारः भगिनी. अस्तु अस्तु, अद्यतनवर्गे प्रायः बहूनां विषयाणाम् अवलोकनं भवति इति कृत्वा अहमेव किञ्चित् अधिकं वदामि इति भाति, किन्तु अवश्यं शृण्वन्तु सावधानतया, अपि च प्रश्नाः सन्ति चेत् पृच्छन्तु. अग्रिमवर्गात् पुनः यथा सामान्यं नूतनविषयाः आरप्स्यन्ते इति. अस्तु तर्हि सर्वे कृपया अष्टादशपृष्ठं पश्यन्तु. तत्र अष्टादश न, सप्तदश इष्टि इति पृष्ठसङ्ख्या. तावत्पर्यन्तं सप्तदशपृष्ठपर्यन्तं पूर्वमपि एकवारं पुनरवलोकनं जातमासीत्. पुष्पा भगिनी अस्ति खलु नूतनतया? अस्तु, सा एव. अस्तु, पृष्ठसङ्ख्या सप्तदश इति सर्वे कृपया तत्र तावत्पर्यन्तम् एकवारं पूर्वमपि पुनरवलोकनं कृतवन्तः. तावत्पर्यन्तं सप्तपदार्थानां निरूपणं सञ्जातम् आसीत्. सप्तपदार्थाः न्यायशास्त्रे के इति चेत्, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. द्रव्यं पुनः तत् द्रव्यम् इत्यस्यां श्रेण्यां पुनः नवद्रव्याणि सन्ति: पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिग्, आत्मा, मनः इति नवद्रव्याणि. यस्मिन् गुणः वर्तते तद् द्रव्यम् इति नैयायिकाः वदन्ति. नैयायिकानां चिन्तनं तथा अस्ति, यस्मिन् गुणः तद् द्रव्यम्. यथा पृथिव्यां गन्धः, जले शैत्यम् इति गुणः, तेजसि औष्ण्यं, वायौ स्पर्शः इति गुणः, आकाशे शब्दः इति गुणः, काले सङ्ख्या इति गुणः, दिशि सङ्ख्या, आत्मनि ज्ञानं, मनसि अपि सङ्ख्या इति गुणः अस्ति इति प्रथमपृष्ठे एव अस्ति पुस्तके, पश्यन्तु अनन्तरम्. अस्तु इति कृत्वा नवद्रव्याणि सन्ति, अपि च द्रव्येषु गुणः इति पदार्थः वर्तते. द्रव्यम् अपि च गुणः इति पदार्थद्वयं. तदनन्तरं कर्म, सामान्यं, विशेषः, समवायः, अभावः इत्यपि पदार्थाः. तस्मिन् सन्दर्भे आधाराधेयभावः इति सिद्धान्तः परिशीलितः आसीत्. आधाराधेयभावः इति किमर्थम् अस्माभिः परिशीलितम् इति चेत्, सर्वं कुत्रचित् वर्तते लोके खलु, इत्युक्ते द्रव्ये गुणः वर्तते इति कृत्वा द्रव्यम् अधिकरणम् अथवा आधारः, गुणः आधेयः अथवा गुणे आधेयता अस्ति इति वक्तुं शक्यते. द्रव्ये अधिकरणता अस्ति, अपि च गुणे कीदृशी आधेयता अस्ति इति ज्ञातुं निरूप्यनिरूपकभावस्य प्रयोजनम् आगतमासीत्. द्रव्यनिष्ठ अधिकरणतानिरूपितगुणनिष्ठ आधेयता इति वक्तुं शक्यते. द्रव्ये अन्ये सर्वे पदार्थाः अपि सन्ति इति कृत्वा कर्म अपि द्रव्ये अस्ति. तेन द्रव्यनिष्ठ अधिकरणता कर्मनिष्ठ आधेयताम् अपि निरूपयति इति. भानुचैतन्य महोदय, प्रश्नः अस्ति वा?
एकं प्रश्नः अस्ति, प्रष्टुं शक्नोति वा?
अस्तु, अवश्यम् अवश्यं वदतु.
भवती एकवारं निरूपक किञ्चित् अन्य अधिकं वदतु.
अस्तु, तर्हि एवं कुर्वन्ति. महोदय, एको आगच्छत् अस्ति महोदय, भवतः स्पीकर् मध्ये अस्ति चेत् मास्तु, साक्षात् दूरवाण्या सर्वे वदन्तु इति. अस्तु, अपि च नूतनतया कोऽपि अस्ति, रामनाथन् महोदय इति भाति, किल? अहम् ईमेल् द्रष्टुं शक्नोमि अत्र, भवतु नाम सर्वे षष्ठपृष्ठं
भगिनि.
नमस्कारः महोदय. पृष्ठसङ्ख्या षड् इति पश्यन्तु सर्वे, तत्र द्रव्यनिष्ठ, तत्र एकं चित्रमस्ति अधोभागे खलु. द्रव्यम् अस्ति, द्रव्यम् अधिकरणं, गुणः अस्ति, गुणः आधेयः, अतः द्रव्ये अधिकरणता अस्ति, गुणे आधेयता अस्ति इति कृत्वा द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति आगच्छति, यतोहि तत्र अधिकरणता आधेयता अनयोः मध्ये निरूप्यनिरूपकभावः वर्तते इति. निरूप्यनिरूपकभावः कुत्र वर्तते इति चेत्, निरूप्यनिरूपकभावः ससम्बन्धिकपदार्थानां मध्ये एव वर्तते. ससम्बन्धिकपदार्थः इत्युक्ते किम् इति चेत्, एकं पदार्थं ज्ञात्वा अपरं ज्ञातुं यदा जिज्ञासा उदेति तदा सः पदार्थः ससम्बन्धिकः इति वदामः. इत्युक्ते आधेयता इति ज्ञात्वा, अस्तु आधेयता अस्ति चेत् अधिकरणता अपि स्यात्, अधिकरणं किम् इति जिज्ञासा उदेति, अतः अधिकरणता आधेयता अनयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति प्रदर्शितमस्ति षष्ठे पृष्ठे, पृष्ठसङ्ख्या षडिसि इति. तत्र पश्यन्तु, द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति. गुणस्य स्थाने कर्म इति स्थापयितुं शक्यते, यतोहि द्रव्ये कर्म अपि वर्तते इति कृत्वा द्रव्यनिष्ठ अधिकरणता निरूपित कर्मनिष्ठ आधेयता इति अपि भवितुम् अर्हति इति कश्चन मुख्यसिद्धान्तः निरूप्यनिरूपकभावः. एतस्य अभ्यासः अवश्यं भवतु इति. उपरि गमनार्थं निष्ठ, अधोगमनार्थं वान् अथवा आश्रयः इति. भानुचैतन्यमहोदय अवगच्छति वा?
क्षम्यतां महोदय, अहं दूरवाण्यां तु सम्पर्कं सर्वदा भग्नः, अतः फ्री कान्फरेन्स् आप् एकम् अस्ति ततस्तु.
किन्तु यद् मया समीचीनं, किन्तु मया यद् उक्तम् अधुना तद् श्रुतं वा?
श्रुतम् अहं. निरूपितनिरूपक किमर्थं तत् परिभाषा अस्ति इति अहमेक सम्बन्धः तु निरूपितनिरूपकभावः सत्यं, किं किमर्थं तत्?
हा, किमर्थम् इति चेत् गुणे आधेयता अस्ति खलु.
आं महोदय.
हा, गुणे आधेयता अस्ति, सा आधेयता ससम्बन्धिकपदार्थः. आधेयता कीदृशी इति प्रश्नः आगच्छति, यतोहि आधेयता बहुत्र वर्तते. उपरि पश्यतु, उपरितनचित्रे यज्ञदत्ते अपि आधेयता अस्ति किल.
आम् आम् आम्.
सा आधेयता भिन्ना, गुणनिष्ठ आधेयता भिन्ना इति वार्ता. अस्तु, आसननिष्ठ, आसननिष्ठ अधिकरणता निरूपित आधेयता यज्ञदत्ते, अपि च द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता गुणे इति मुख्यः विषयः. तदर्थं निरूप्यनिरूपकभावस्य प्रयोगः भवति. अवगतं वा?
किञ्चित् अवगतं भोः.
अस्तु, किञ्चित् वर्णयतु गुणः आधेयता अधिकरणता इत्यादिकं भवान् एव.
द्रव्यमस्ति, द्रव्ये गुणम् अस्ति.
गुणः अस्ति पुल्लिङ्गपदं.
गुणः अस्ति. द्रव्ये तु अधिकरणता अस्ति, गुणे तु आधेयता अस्ति.
किमर्थम्?
गुणः द्रव्ये अस्ति, अतः
गुणः आधेयः इति वदामः.
आम्, अतः गुणः आधेयः.
गुणे आधेयता इति धर्मः अस्ति.
आम् महोदय.
अस्तु, आधेयतां निरूपयतु अधुना.
इत्युक्ते द्रव्याश्रयः अधिकरणता इति वक्तुं वा?
हा तत् कम् अस्तु आधेयतां निरूपयतु इति यदा वदामि तदा आधेयता इति अन्ते भवति द्रव्यनिष्ठ अधिकरणता निरूपितगुणनिष्ठ आधेयता अवगच्छति
तत् चित्रे नवमचित्रे अस्ति तत् वा
तदेव आधेयतां निरूपयतु इत्युक्ते आधेयता कीदृशी इति वक्तव्यम् आधेयता कीदृशी
द्रव्यनिष्ठा अधिकरणता निरूपित आधेयता
आधेयता अथवा गुणनिष्ठ आधेयता इति अपि वक्तुं शक्यते यतोहि गुणे अस्ति खलु आधेयता अपि च गुणः कीदृशः
कीदृशः इत्युक्ते
राधिका भगिनी साहाय्यं करोति वा भानुचैतन्यमहोदय शृणोतु अधुना अस्तु
इदानीं तु प्रश्नः उदयति आधेयता कीदृशी इति खलु
न आधेयता कीदृशी इति महोदय उक्तवान् गुणः कीदृशः
गुणः तु अस्तु द्रव्यनिष्ठ अधिकरणतानिरूपित आधेयतावान् गुणः तु गुणे आधेयता अस्ति तस्मात् कारणार्थम् आधेयतावान् इति वयं वदामः
हा बहु समीचीनम् अस्तु गुणः इति अधोगमनं भवति आधेयतातः अधः गच्छामः चेत् वान् अथवा आश्रयः इति योजयामः द्रव्यनिष्ठ अधिकरणतानिरूपित आधेयतावान् अथवा आधेयताश्रयः गुणः इति आगच्छति अस्तु द्रव्यं कीदृशं भगिनि
अस्तु गुणनिष्ठ आधेयतानिरूपित अधिकरणतावत् द्रव्यम् अथवा अधिकरणताश्रयः द्रव्यम् इति वक्तुं शक्नुमः
समीचीनम् इति वार्ता आधाराधेयभावः इति तयोः मध्ये नृप्यनिरूपकभावः अपि अस्ति इति ज्ञेयं समीचीनं तर्हि अयमपि एकः मुख्यसिद्धान्तः तदर्थम् अत्र आगतवती पुनरावलोकनार्थम् इतः अग्रे सरेमः सप्तमपृष्ठे तु द्रव्याणि कानि इति दर्शितमस्ति पृथ्वी तेजो वायु आकाश कालदिगात्मा मनांसि इति
महोदय एकः प्रश्नः
अवश्यं
पूर्वस्मर्गे भवती उक्तवती घटे ज्ञानम् अस्ति ज्ञाने घटम् अस्ति एतस्मिन् अधिकरणता का आदेयः कः
भवान् एव वदतु अस्तु घटे एकः विषयः महोदय घटे ज्ञानं सर्वदा नास्ति यदा घटविषयकं ज्ञानं भवति तदा इति सन्दर्भः खलु भवतः उदाहरणे अस्तु भवानेव वदतु अधुना
मम समस्या अस्ति का आदेयता कः आदेयः
तत्र वयं हा तत्र वयं चर्चितवन्तः खलु वृत्ति अनियामकसम्बन्धः तयोः मध्ये वृत्तिः इत्युक्ते आधेयः इति महोदय वृत्ति अनियामकसम्बन्धः इति वदामः यतोहि वृत्तिः अथवा आधेयः नियमितः नास्ति अनियमितः अनियमितः अस्ति इति कृत्वा इत्युक्ते निश्चितः नास्ति वृत्तिः अथवा आधेयः अवगच्छति वा
निश्चितं नास्ति वा
अवश्यं निश्चितं नास्ति खलु घटे अपि ज्ञानमस्ति घटे ज्ञानमस्ति चेत् तदा वृत्तिः ज्ञानं ज्ञाने घटः अस्ति चेत् तत्र वृत्तिः कः का
न अवगच्छामि
न महोदय वृत्तिः इत्युक्ते किं प्रथमतया
वृत्तिः इति अधिकरणं वा
आधेयः इति उक्तवती खलु अधुनैव वृत्तिः इत्युक्ते का तर्हि आधेयः वृत्तिः भवतः उदाहरणे ज्ञानविषयस्य उदाहरणे वृत्तिः निश्चितमस्ति वा इति मम प्रश्नः निश्चिता अस्ति वा इति वक्तव्यं स्त्रीलिङ्गपदं निश्चिता अस्ति न वा
ज्ञानं घटे अस्ति तस्मिन् सन्दर्भे ज्ञानम् आधेयः अतः ज्ञाने आधेयता अस्ति घटे अधिकरणता अस्ति अन्यत् सन्दर्भे घटे ज्ञाने घटम् अस्ति घटः आदेयत घटं घटः आदेयः
घटे आधेयता अस्ति खलु हा एकवारं ज्ञाने आधेयता अपरवारं घटे आधेयता तर्हि वृत्तिः अथवा आदेयः निश्चिता नास्ति किल
निश्चिता नास्ति
इति कृत्वा तयोः मध्ये यः सम्बन्धः वृत्ति अनियामकसम्बन्धः इति उच्यते परन्तु संयोगः तथा नास्ति महोदय संयोगस्थले वृत्तिः इति निश्चिता अस्ति खलु भूतले घटः अस्ति चेत् तत्र वृत्तिः का
भूतले घटः आदेयः अतः वृत्तिः
सत्यं सत्यं तादृशसम्बन्धः द्रव्ये गुणः अस्ति तत्रापि निश्चिता अस्ति वृत्तिः अथवा आधेयः निश्चितः किल गुणः एव आधेयः
एतस्मिन् ज्ञानं गुणः भवति घटः द्रव्यं भवति
पुनः वदतु
घटज्ञानं सन्दर्भे ज्ञानं गुणः भवति घटः द्रव्यं भवति
घटः द्रव्यं ज्ञानम् इति गुणः इति सत्यमेव परन्तु ज्ञानं घटे न वर्तते गुणरूपेण ज्ञानं कुत्र वर्तते प्रथमपृष्ठे पश्यतु ज्ञानं नवद्रव्याणि प्रदर्श्य आत्मनि वर्तते भवान् यद्वदति तत्तु द्रव्यगुणयोः सम्बन्धः नास्ति घट अपि च ज्ञानमिति वदति चेत् विषयः अपि च विषयी तयोः मध्ये सम्बन्धः अस्ति ज्ञानम् इति विषयी किल यस्मिन् विषयः सः विषयी ज्ञानम् इति विषयी अवगच्छति वा अस्तु समीचीनं प्रश्नः सम्यक् आसीत् काचित् चर्चा जाता तस्य विषये अपि अस्तु इतः अग्रे सरेम चतुर्विंशतिगुणाः इति जानीमः सप्तमपृष्ठे अस्ति पञ्चकर्माणि इति पुनः तत्रैव अष्टमपृष्ठे यद् चित्रमस्ति तत् पुनः अवलोकयन्तु पश्यन्तु तत्र द्रव्यम् इति अस्ति द्रव्ये सर्वे पदार्थाः सन्ति द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सर्वे सन्ति तत्र बहुत्र स्टाटिक् नाय्स् अस्ति कृपया सर्वे म्यूट् कुर्वन्तु यदा वदन्ति पुनः अन्म्यूट् कुर्वन्तु मेहुल महोदय आगतवान् इति भाति खलु अस्तु तर्हि अष्टमचित्रे किं कस्मिन् अस्ति इति प्रदर्शितं द्रव्ये सर्वे पदार्थाः द्रव्ये द्रव्यमपि तिष्ठति इति जानीमः गुणे किम् अस्ति इति चेत् गुणे केवलं सामान्यं समवायः अभावः इति कर्मणि अपि तथा सामान्यं समवायः अभावः इति अनेन सामान्यम् इति पदार्थः यः अस्ति तस्य अधिकरणानि कानि इति चेत् त्रीणि एव द्रव्यं गुणः कर्म इति द्रव्यगुणकर्मसु सामान्यम् अथवा जातिः इति पदार्थः वर्तते पुनः सामान्ये समवायः अभावः इति पदार्थद्वयमेव विशेषः इति पदार्थः तस्मिन् समवायः अभावः इति समवाये केवलम् अभावः अभावे अपि अभावः इति पदार्थः स्थातुं शक्नोति इति तत्र प्रदर्शितम् नवमपृष्ठे पश्यन्ति चेत् तत्र सामान्यपदार्थनिरूपणम् इति अस्ति सामान्यम् इत्युक्ते समानानां धर्मः सामान्यम् इति वयं दृष्टवन्तः सामान्यम् इत्युक्ते जातिः इति अपि वक्तुं शक्यते परम् अपरम् इति सामान्यं द्विविधम् अस्ति परम् इत्युक्ते बृहती जातिः अथवा बृहत् सामान्यम् अपरम् इत्युक्ते लघ्वी जातिः अथवा लघु सामान्यम् अधुना पृथिवीत्वम् अपि च द्रव्यत्वम् इति जातिद्वयमस्ति द्रव्यत्वम् इति बृहती जातिः तर्हि द्रव्यत्वं पृथ्वीत्वस्य अपेक्षया परं सामान्यं पृथ्वीत्वं द्रव्यत्वस्य अपेक्षया अपरं सामान्यम् इति एतत् सर्वं दृष्टवन्तः दशमपृष्ठे तु एकस्मिन् अधिकरणे बहूनि सामान्यानि सन्ति इति प्रदर्शितं. चित्रसङ्ख्या 12 इति पश्यन्तु. पुस्तके पुस्तकत्वं, पृथ्वीत्वं, द्रव्यत्वं, नीलरूपे नीलत्वं, रूपत्वं, गुणत्वम् इत्यादिकम् अस्ति. अपि च सत्ता इति अपि जातिः इति प्रदर्शितवन्तः, केवलं परं च अपरम् इत्यस्य विवरणार्थं. सत्ता इति या जातिः अस्ति सा जातिः द्रव्यगुणकर्मणि वर्तते. द्रव्यं सत्, गुणः सन्, कर्म सत् इति यत्र प्रतीतिः तत्र तत्र सत्ता इति जातिः तेषु वर्तते. सत्ता इति एका बृहती जातिः अस्ति. तर्हि सत्ता इति परं सामान्यम् अथवा परा जातिः इति वदामः. द्रव्यत्वं, गुणत्वं, कर्मत्वं, सत्ता अपेक्षया अपरा जातिः अथवा अपरं सामान्यम् इति वदामः. अग्रिमपृष्ठं गच्छन्तु. द्वादशपृष्ठे नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ताः इति विशेषस्य निरूपणम्. विशेषः इत्यपि एकः पदार्थः केवलं नित्यद्रव्येषु वर्तते. नित्यद्रव्याणि कानि इति चेत् आकाशः, कालः, दिग् च आत्मा, अपि च परमाणवः. पृथ्वी, जलं, तेजः, वायुः इत्येषु परमाणवः सन्ति. परमाणुः इत्युक्ते तादृशपदार्थः यस्य अवयवाः न सन्ति, पुनः खण्डनं न शक्यते. तादृशपदार्थः अस्ति परमाणुः. परमाणौ विशेषः इति पदार्थः भवति. विशेषः इति पदार्थस्य कार्यं किम् इति चेत् एकः परमाणु अपरस्मात् भिन्नः इति साधयति विशेषः. यतोहि परमाणुषु अवयवाः न सन्ति, तर्हि एकः परमाणुः अपरस्मात् भिन्नः इति अवयवस्य आधारेण वक्तुं न शक्यते. एकः घटः अपरस्मात् घटात् भिन्नः इति वक्तुं शक्नुमः, यतोहि एकस्य घटस्य अवयवाः भिन्नाः, अपरस्य घटस्य अवयवाः भिन्नाः. परमाणुस्थले तथा नास्ति इति कृत्वा विशेषः इति पदार्थः स्वीकार्यः, येन एकः परमाणुः अपरस्मात् भिन्नः इति आगच्छति. अयमेव विशेषः आकाशे, काले, दिशि अपि च आत्मनि अपि वर्तते इति. अस्तु, अग्रिमपृष्ठे चतुर्दशपृष्ठे समवायपदार्थनिरूपणं. समवायस्त्वेक एव इति.
महोदय, आकाशे आकाशपरमाणु अस्ति वा?
आकाशे परमाणु नास्ति महोदय.
नित्यद्रव्यम् इति मन्ये.
हा, समीचीनम् इति एकमेव. महोदय, भवान् स्पीकर् मोड् मध्ये अस्ति वा भवतः दूरवाण्याम्?
आं महोदय.
इयर्फोन् आवश्यकम् अस्तु, नो चेत् एको आगच्छति. अग्रिमवर्गात् इयर्फोन् इति कृपया. अस्तु, प्रश्नः समीचीनः भानुचैतन्य महोदय. आकाशे परमाणु नास्ति, यतोहि परमाणुः अस्ति चेत् आकाशे अवयवः अस्ति इति आगच्छति खलु. अवयवः केवलम् अवयवः इति केवलं अनित्यद्रव्येषु भवति, न तु नित्यद्रव्येषु. आकाशादिषु अवयवाः न सन्ति इति कृत्वा तत्रापि विशेषः इति भवति. अस्तु, इति विशेषस्य विषयः. समवायः इति अस्माभिः दृष्टं चतुर्दशपृष्ठे. पश्यन्तु, समवायः तु एकः एव इति. समवायः इति कश्चन सम्बन्धः. समवायः कुत्र कुत्र वर्तते इति चेत् पञ्चदशपृष्ठे यद् चित्रम् अस्ति, चित्रसङ्ख्या 17 इति, तत्र प्रदर्शितं. समवायः अवयव अवयविनोः मध्ये वर्तते. यथा घटः इति अवयवी, कपालः इति अवयवः, तयोः मध्ये समवायसम्बन्धः. रूपम् इति गुणः, द्रव्यम् इति गुणी, तत्र गुणगुणिनोः मध्ये समवायसम्बन्धः. उत्क्षेपणक्रिया अपि च क्रियावत् द्रव्यम् इत्युक्ते क्रिया क्रियावतोः मध्ये समवायसम्बन्धः. घटत्वादिजातिः इत्युक्ते घटत्वं, पटत्वम् इत्यादयः जातयः, अपि च घटादिव्यक्तिः. व्यक्तिः इत्युक्ते सदस्यः. घटत्वम् इति जातिः इति चेत् प्रत्येकं घटः तत्र व्यक्तिः भवति इति कृत्वा जातिव्यक्त्योः मध्ये समवायसम्बन्धः. अनन्तरं विशेषनित्यद्रव्ययोः मध्ये अपि समवायसम्बन्धः. नित्यद्रव्येषु विशेषः समवायसम्बन्धेन वर्तते इति कृत्वा समवायः पञ्चसु स्थलेषु एव वर्तते इति अस्ति. अस्तु, तर्हि इतः अग्रे अभावः इति षोडशपृष्ठे अभाववर्णनम् इति जातम्. अभावः इति अन्तिमपदार्थः. एतावता षड् पदार्थाः ये परिशीलिताः ते भावपदार्थाः. अधुना सप्तमः पदार्थः अभावः इति. अभावः इति पदार्थः तु न्यायशास्त्रे किमपि कुत्रचित् नास्ति इति प्रकटीकर्तुं यः व्यवहारः भवति, तादृशज्ञानं यः पदार्थः जनयति सः अभावः इति वदामः. घटः नास्ति इति एव विचारं घटाभावः अस्ति इति वक्तुं शक्यते. तादृशव्यवहाराय अथवा तादृशभाषणाय अभावः इति सप्तमपदार्थः स्वीकृतः. अस्तु, तावत्पर्यन्तं पूर्वमपि वयम् एकवारं परिशीलितवन्तः. अधुना अग्रिमपृष्ठे सप्तदशपृष्ठं पश्यन्तु कृपया, पेज् 17 इति. तत्र विरोधः इति विषयः. विरोधः इति द्विविधम् अस्ति, वध्यघातकभावरूपविदो विरोधः. वध्यघातकभावरूपविरोधस्थले एकः वध्यः भवति, अपरः घातकः भवति. इत्युक्ते एकस्य नाशः भवति, अपरः तं नाशयति इति सामान्यं. परन्तु वध्यघातकभावस्थले वध्यस्य अपि च घातकस्य, इत्युक्ते विरोधिनोः, एकस्मिन् समये एकत्र प्राप्तिः भवति. तृतीयक्षणम् इति पश्यन्तु उपरितनचित्रे. सर्पः अपि च नकुलः तृतीयक्षणे उभयोः एकत्र स्थितिः अस्ति. उभौ अपि विरोधिनौ, परस्परविरोधिनौ इति वध्यघातकभावविरोधः. अग्रिमः अस्ति सहानवस्थानरूपः विरोधः. सः अनवस्थानरूपविरोधः. अस्मिन् तु विरोधिनौ यौ स्तः तौ एकस्मिन् क्षणे एकत्र न भवतः इति. अस्माकं मुख्यविषयः अस्ति अयमेव, अभावस्तरे. इत्युक्ते प्रथमक्षणे घटाभावः अस्ति, द्वितीयक्षणे अपि घटाभावः इति प्रदर्शितः तत्र, तृतीयक्षणे घटः, चतुर्थक्षणे घटः तत्र तस्मिन् चित्रे, चित्रसङ्ख्या 20 इति विंशतितमचित्रे वयं पश्यामः यत् यत्र घटाभावः अस्ति तत्र घटः नास्ति, यत्र घटः अस्ति तत्र घटाभावः नास्ति इति कृत्वा विरोधिनोः एकस्मिन् स्थले एकस्मिन् क्षणे स्थितिः अथवा अवस्थानं नास्ति. तादृशविरोधः अस्ति सहानावस्थानरूपविरोधः. अस्तु, इतः अग्रे किञ्चित् सरेम. पृष्ठसङ्ख्या 18 इति प्रतियोग्यनियोगिभावनिरूपणम् इति अस्ति. तत्र सीमा भगिनी अस्ति वा?
भगिनी इतःपर्यन्तं सम्यक् अस्ति, किञ्चिदपि क्लेशः नास्ति. इतोपि एव विरोधः आरम्भं करोति, प्रतियोगी अनियोगी इति आरम्भं करोति.
अस्तु, अस्तु, तदर्थमेव परिशीलयामः. अस्तु, सीमा भगिनी किञ्चित् प्रतिपादयतु. अपि च
भगिनि
एकनिमिषं, नूतनतया विद्या भगिनी इति भाति खलु? विद्या भगिनी. अस्तु, सीमा भगिनी प्रतियोगी अनियोगी भावनिरूपणं.
क्षम्यतां भगिनि, आम् अहं केवलं शृणोमि भगिनि.
आमाम्, अस्तु अस्तु, केवलम् एवमेव पृष्टवती. तत्र विद्या क्षम्यतां, सीमा भगिनी भवती वदतु. अत्र विरोधः इति उक्तम्, अभावस्थले सहानावस्थानरूपविरोधः इति. विरोधः कुत्र कुत्र वर्तते अभावस्थले?
विरोधः यस्मिन् अभावः अस्ति तत्र विरोधः भवति, एवम् अभावे अपि विरोधः भवति.
यस्य अभावः भवति इति वक्तव्यं,
यस्य अभावः भवति.
घटाभावः, घटाभावः इत्यस्य विरोधी कः?
घटः.
घटः, घटस्य विरोधी
घटाभावः
तत्र तर्हि विरोधः उभयत्र वर्तते कुत्र
घटाभावे एवं घटे च
हा बहु समीचीनं भगिनि अधुना विरोधस्य नामकरणमपि अस्ति तत् किञ्चित् वदतु
घटे यः घटाभावस्य प्रति विरोधः घटाभावं प्रति विरोधः अस्ति तस्य नाम प्रतियोगिता अस्ति अभावे घटं प्रति यः विरोधः अस्ति तस्य नाम अनुयोगिता अस्ति
घटे प्रतियोगिता नामिका विरोधः अपि च अभावे अनुयोगिता इति अस्तु एवमेव भगिनि अग्रिमचित्रं निरूपयतु यत्र पृष्ठसङ्ख्या 18 इति चित्रसङ्ख्या 23 सर्वे पश्यन्तु अधुना भगिनी अभावः कीदृशः इति मम प्रश्नः अस्तु अभावः कीदृशः इति वर्णयतु कृपया
घटनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः
बहु समीचीनमस्ति भगिनी अनुयोगिता कीदृशी इति चेत्
अनियोगिता घटनिष्ठ प्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता
हा बहु सम्यक् प्रतियोगिता कीदृशी
अभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता
घटनिष्ठ प्रतियोगिता इति वक्तव्यम् अस्तु सम्यक् भगिनि तर्हि अस्माकं नियमः मनसि भवेत् अस्तु नियमः कः आसीत् इत्युक्ते यदा ऊर्ध्वगामिनीशरः अस्ति इत्युक्ते यदा शरः उपरि गच्छति तत्र प्रति निष्ठ इति स्थापनीयम् अधोगमनार्थं वान् अथवा आश्रयः इति स्थापनीयं शरः अथवा एरो अधः गच्छति चेत् अधोगामिनीशरे वान् अथवा आश्रयः उपरि गामिनीशरे अथवा ऊर्ध्वगामिनीशरे निष्ठ इति स्थापनम् भवेत् तदर्थमेव यथा भगिनी उक्तवती उपरि गामिनीशरे निष्ठ इति स्थापयित्वा घटनिष्ठप्रतियोगिता इति आगच्छति अधोगामिनीशरे वान् अथवा आश्रयः इति स्थापयित्वा अनुयोगितावान् अथवा अनुयोगिताश्रयः अभावः इति भवति आण्ड्रे महोदयेन आगतम् इति भाति नमस्कारः अस्तु प्रतियोगिता अनुयोगिता इति विरोधद्वयमस्ति इति अधुना 19 पश्यन्तु तत्र अभावत्रयं निरूपितं सामान्याभावः विशेषाभावः ततः अग्रे विशेषविशेषाभावः इति सामान्याभावः इत्यस्य उदाहरणमासीत् जलाभावः यत्र कुत्रापि जलसामान्यं सामान्यम् इत्युक्ते अत्र जातिः इति न जलसामान्यम् इत्युक्ते यस्य कस्यापि अपि जलत्वम् इति जातिः वर्तते तादृशं सामान्यजलं तस्य अभावः चेत् सामान्याभावः सामान्याभावस्य प्रतियोगी जलमेव विशेषाभावस्य उदाहरणमासीत् तत्र वृष्टिजलाभावः वृष्टिजलाभावस्य प्रतियोगी वृष्टिजलमेव इत्युक्ते सामान्याभावं निवारयितुं यत्किमपि जलम् आनेतुं शक्यते कूपजलं वृष्टिजलं तडागजलं नदीजलं यत्किमपि जलं पर्याप्तं परन्तु विशेषाभावं वृष्टिजलाभावं निवारयितुं केवलं वृष्टिजलम् आवश्यकम् आसीत् इति कृत्वा तादृश अभावः वृष्टिजलाभावः इति उच्यते अग्रिमपृष्ठं गच्छन्तु तत्र पृष्ठसङ्ख्या 20 इति चित्रसङ्ख्या 24 उपरितनचित्रं तत्र प्रदर्शितमस्ति वृष्टिजले प्रतियोगिता अस्ति सा प्रतियोगिता अनुयोगितां निरूपयति अनुयोगिता कुत्र वर्तते इति चेत् वृष्टिजलाभावे वर्तते इत्युक्ते वृष्टिजलाभावं निवारयितुं केवलं वृष्टिजलमेव आवश्यकम् अन्यत् किमपि न इति कृत्वा तादृशी प्रतियोगिता अभावं प्रति केवलं वृष्टिजले एव वर्तते इति विशेषविशेषाभावः इति अपि अस्माभिः दृष्टं तस्य उदाहरणमासीत् स्वातिनक्षत्रीयवृष्टिजलाभावः स्वातिनक्षत्रीयवृष्टिजलाभावः इति यत्र अस्ति तत्र तम् अभावं निवारयितुं स्वातीनक्षत्रीयवृष्टिजलमेव आवश्यकं, न तु सामान्यवृष्टिजलम् अथवा सामान्यजलम् इति कृत्वा स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव अस्ति इति आगतम्। अस्तु, तर्हि अधुना प्रश्नः उदेति एतत् सर्वं किमर्थम् उक्तम् इति चेत्, अग्रिमपृष्ठे अवच्छेदकत्वपदार्थवर्णनम् इति अस्ति। अस्माभिः तत्र पृष्ठसङ्ख्या 21 इति पश्यन्तु, तत्र किञ्चित् वक्तव्यम् अस्ति। कः वदति? प्रायः बालसुब्रह्मण्यमहोदय किञ्चित् विवृणोति वा तत्र दृष्टान्तः कः आसीत् इति चेत्, पात्रद्वयमस्ति अस्तु, उभयोः पात्रयोः क्षीरमपि अस्ति। अधुना एकं क्षीरम् अपरस्मात् भिन्नम् इति कथं ज्ञातुं शक्नुमः इति चेत्, पात्रं दृष्ट्वा। पात्रम् इति भिन्नतां प्रदर्शयति। तर्हि बालसुब्रह्मण्यमहोदय, तत्र पात्रं किमस्ति?
अपरस्मिन् पात्रं धृत्वा किञ्चित् क्षीरं तदन्तरे स्थापयति चेत् तावत् क्षीरं अवच्छेदकं भवति, पृथक्तं भवति, तेन कारणेन अवच्छेदकं भवति।
हा, क्षीरम् अस्तु, समीचीनं महोदय। क्षीरम् इति भिन्नं भवति खलु, क्षीरं भिन्नम् इति जानीमः, केन कारणेन क्षीरं भिन्नम् इति जानीमः?
पात्ररूपेण एव,
अतः पात्रं किं तत्र
अवच्छेदकं भवति, अवच्छेदकम्।
अवच्छेदकम् इत्युक्ते यत् भिन्नतां प्रदर्शयति तदेव अवच्छेदकम्। हा, क्षीरं किं तत्र?
क्षीरम् अवच्छेद्यम् इति।
हा, अवच्छेद्यम् इत्युक्ते?
अवच्छेद्यम् इति पृथक्तं विहाय मूलरूपे यः अस्ति सः अवच्छेद्यम् इति।
अवच्छेद्यम् इत्युक्ते यस्मिन् पृथक्त्वं भवति महोदय, इति एव अवच्छेद्यम्। पात्रम् अवच्छेदकं, यतोहि अवच्छेदयति, अवच्छेदकम् इति नुल् प्रत्ययः, यथा गायकः नायकः
रूपकः।
हा, अवच्छेदनं करोति इति अवच्छेदकं, कर्त्रर्थे कर्ता पात्रम् अवच्छेदयति। अवच्छेद्यम् इति कर्मण्यर्थे अवच्छेद्यं भवति क्षीरं, यतोहि अवच्छेद्यम् इति वदामः यतोहि क्षीरे तादृशी भिन्नता अस्ति पात्रस्य आधारेण जानीमः इति कृत्वा। अस्तु, अधस्तनचित्रं निरूपयतु किं कस्मिन् अस्ति इति किञ्चित्।
महोदय, एकः प्रश्नः
अवश्यं महोदय।
यथा शरीरम् अवच्छेद्यम्, आत्मा अवच्छेदकम् इति वक्तुं शक्नोति?
आत्मा वस्तुतः अवच्छेद्यः, शरीरम् अवच्छेदकम्, आत्मा इति महोदय।
आम् 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 महोदय,
शरीरभेदेन आत्मनः। हा, नास्ति चिन्ता, एतावत्पर्यन्तं न जातं तर्हि नास्ति चिन्ता एव, परन्तु आत्मा इति अवच्छेद्यः इति वक्तुं शक्यते, शरीरम् अवच्छेदकम् इति।
मम अपि एकः प्रश्नः, यदा भवती पात्रं दृष्ट्वा एतत् पात्रम् अन्यात् भिन्नम् इति वक्तुं शक्नुमः चेत्, अन्य चित्रं पञ्चदश चित्रं कृपया पश्यतु,
15 इति वा? हा, वदतु।
तत्र का पाषाणः अस्ति, गः पाषाणः अस्ति, तत् दृष्ट्वा वयं एतत् पाषाणम् अन्यात् भिन्नम् इति वक्तुं विषयस्य आवश्यकं नास्ति,
विशेषस्य आवश्यकता नास्ति, अवश्यं नास्ति एव,
भिन्नम् इति वक्तुं शक्नुमः,
सत्यं,
विशेषस्य अवश्यम् आवश्यकं
इति सत्यमेव महोदय. विशेषः कुत्र वर्तते?
विशेषः परमाणुषु वर्तते.
परमाणुषु वर्तते, न तु पाषाणेषु, खलु?
पाषाणस्य खण्डनस्य आवश्यकं नास्ति द्रष्टुं.
सत्यमेव, सत्यमेव. खण्डनं महोदय, तत्र काण्टेक्स्ट् भिन्नम् अस्ति. पाषाणस्य खण्डनं न आवश्यकं, तत्र केवलं ग घ छ थ थ इति किमर्थं प्रदर्शितम् इति चेत्, पाषाणः इति अथवा शिलाखण्डः अनित्यद्रव्यं न तु नित्यद्रव्यं, तस्य खण्डनं शक्यं पुनः पुनः इति प्रदर्शयितुम्. अवयवाः सन्ति, ग घ इति अवयवः, तदर्थमेव भवान् वक्तुं शक्नोति क पाषाणः ग पाषाणात् भिन्नः. किमर्थम्? अवयवभेदात् इति. परन्तु पृष्ठ चित्रसङ्ख्या 16 इति पश्यतु, तत्र परमाणुस्तरं प्राप्तवन्तः, परमाणुषु तादृश अवयवाः न सन्ति, तत्र आवश्यकमस्ति विशेषः इति. त विशेषः ख विशेषः तत्र आवश्यकमस्ति. अवगच्छति वा महोदय? अस्तु, पुनः पृष्ठसङ्ख्या 21 इति तत्र आगच्छन्तु. 21 तत्र अस्तु. बालसुब्रह्मण्य महोदय, भवान् वदतु पात्रे किमस्ति, क्षीरे किमस्ति, चित्रं विवृणोतु. बालसुब्रह्मण्य महोदय अस्ति वा?
क्षम्यता, क्षीरमस्ति,
चित्रं वदतु महोदय. पात्रे किमस्ति?
पात्रे अवच्छेदकता. क्षीरे अवच्छेद्यता. यः अवच्छेदकं भवति तत्क्षीरम्.
क्षीरम् अवच्छेद्यं, तदर्थं तस्मिन् अवच्छेद्यता.
अवच्छेद्यता.
पात्रम् अवच्छेदकं, तदर्थं तस्मिन् अवच्छेदकता. अवच्छेदकम् अवच्छेदकता इति धर्मः, तावदेव. अधुना वाक्यं वदतु, क्षीरं कीदृशम् इति कोऽपि पृच्छति चेत्, निष्ठ आश्रयः
इत्यादिकं.
हा, बहु समीचीनं महोदय. अवच्छेद्यताश्रयः क्षीरम् इति अपि वक्तुं शक्यते. अस्तु, अग्रे
अग्रे अधः क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः पात्रम्.
बहु समीचीनम् इत्येव अस्ति. तर्हि यथा अत्र अवच्छेदकं किम् अपि च अवच्छेद्यं किम् इति ज्ञातवन्तः, तद्वत् अभावस्थले प्रतियोगिताः भिन्नाः सन्ति इति जानीमः एव. अग्रिमपृष्ठं प्रति गच्छन्तु कृपया. अस्तु, अग्रिमपृष्ठं प्रति गच्छन्तु. तत्र पश्यामः यत् प्रतियोगिता इति बहुत्र वर्तते. पृष्ठसङ्ख्या 22 इति, तत्र चित्रसङ्ख्या 26 षड्विंशतितमचित्रं पश्यन्तु. प्रतियोगिता इति यदस्ति, सा प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले अपि अस्ति खलु, अपि च प्रतियोगिता वृष्टिजले अपि अस्ति किल. प्रतियोगिता इति सामान्यजले अपि अस्ति खलु. इदानीं यस्य अस्तु, कोऽपि स्वातिनक्षत्रीयवृष्टिजलं दृष्ट्वा अहं जलाभावं निवारयितुम् इच्छामि इति वदति चेत्, स्वातिनक्षत्रीयवृष्टिजलमपि जलाभावं निवारयति. तदा स्वातिनक्षत्रीयवृष्टिजलं जलाभावस्य प्रतियोगी भवति. तस्मिन् तादृशी प्रतियोगिता वर्तते. वृष्टिजले अपि जलाभावं निवारयितुं प्रतियोगिता वर्तते. परन्तु सामान्यजले वृष्टिजलं जलाभावं वा स्वातिनक्षत्रीयवृष्टिजलाभावं वा निवारयितुं प्रतियोगिता न वर्तते इति वार्ता. हा, तदर्थं प्रतियोगिता कीदृशी इति ज्ञातव्यं भवति. अस्तु, प्रतियोगिता इति बहुत्र वर्तेत, परन्तु प्रतियोगिता कीदृशी इति ज्ञातव्यं भवति. अत्र अवच्छेदक अवच्छेद्यभावस्य प्रयोजनं भवति, अपि च अवच्छेदकं किम्, अवच्छेद्यः कः इति अवश्यं ज्ञातव्यं भवति. अवच्छेदकस्य अपेक्षा अत्र वर्तते यतोहि प्रतियोगितानां मध्ये भेदस्थापनार्थम् इति.
भगिनि अवच्छेद्यं ण्यत् एव खलु? ण्यत्
सत्यं भगिनि,
ण्यत् अवच्छेद्यं
ण्यत् इति. अस्तु, हा इतः अग्रे किञ्चित् किञ्चित् पठेम. तर्हि जगन्नाथमहोदय पृष्ठसङ्ख्या 23 इति तत्र त्रयोविंशतितमपृष्ठे अत्र इदं ज्ञेयम् इति अस्ति, पठति वा किञ्चित्?
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं. यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति, जलत्वद्रव्यत्वसत्तादयोः धर्माः. परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेन जलस्य उल्लेखः कृतः, अतः तत् प्रतियोगितावच्छेदकम् इत्युक्ते जले जलत्वम् अस्ति.
महोदय एकवारम् आरम्भतः खण्डशः किञ्चित् किं किम् अवगतम् इति तस्मिन्नेव परिचये वद आरम्भतः.
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते प्रतियोगितायाः अवच्छेदकम्.
तद्वाक्यं न अवगतं चेत् अग्रे पठतु, अवगच्छति. यथा
यथा जलं नास्ति इति अभावः उक्तः. अस्तु, तर्हि जलस्य अनुपस्थितिः जलाभावः. तर्हि प्रतियोगिनी यत् विशेष
महोदय जलाभावः इति चेत् जला तस्य अभावस्य प्रतियोगी किम्?
जलमेव तस्य प्रतियोगी, जलाभावः अनुयोगी.
बहु समीचीनमस्ति, अग्रे पठतु. जले च प्रतियोगिनी के के धर्माः सन्ति?
जले च प्रतियोगिनी सन्ति जलत्वद्रव्यत्वसत्तादयोः धर्मा इति.
सत्तादयः सत्तादयः इति विसर्गसन्धि भूत्वा सत्तादयो, विसर्गः नास्ति तत्र.
सत्तादयो धर्माः, क्षम्यताम्. परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेन एव जलस्य उल्लेखः कृतः. जलत्वेन एव जलस्य उल्लेखः
इत्युक्ते इत्युक्ते कोऽपि जलं नास्ति इति वदति चेत् तस्य मनसि द्रव्यं नास्ति इति अस्ति वा?
द्रव्यं नास्ति, तस्मिन् क्षेत्रे जलं नास्ति, द्रव्यं नास्ति इति.
द्रव्यं नास्ति इति सत्यं, किन्तु कोऽपि वदति व्यवहारं करोति जलं नास्ति इति, तस्य विवक्षा का? जलाभावः इति विवक्षा.
जलाभावः कस्मिन् स्थाने अस्ति
इति तस्मिन् सन्दर्भे जलत्वेनैव अभावस्य उल्लेखः कृतः. इत्युक्ते कोऽपि वदति जलं नास्ति, कोऽपि न वदति यत् द्रव्यं नास्ति, जलं नास्ति इति वदति चेत् जलत्वेनैव अभावस्य उल्लेखः कृतः. जलाभावः इति उल्लेखः कृतः चेत् जलत्वेनैव अभावस्य उल्लेखः कृतः.
अस्तु,
जलं नास्ति इति रूपेण सः पश्यति अभावं. तदेव प्रथमवाक्ये उक्तं प्रतियोगिनी, प्रतियोगिनी इति सप्तमी विभक्ति. प्रतियोगिनी जले किं विशेषणमस्ति? जलत्वं. प्रतियोगिनः उल्लेखः, उल्लेखः येन रूपेण कृतः, प्रतियोगिनः उल्लेखः केन रूपेण कृतः, जलत्वेन कृतः, धर्मेण क्रियते अथवा धर्म इत्युक्ते जलत्वं, तद् किं भवति अत्र?
तस्य अभावः भवति.
तथा वदामश्चेत् तद् सः धर्मः अथवा येन रूपेण उल्लेखः कृतः, येन विशेषेण उल्लेखः कृतः, तदेव प्रतियोगितायाः अवच्छेदकं भवति.
अवच्छेदकम् इति पृथक् रूपेण स्थापनं वा? अवच्छेदकम् इति सेपरेशन्,
सत्यम्, अवच्छेदकम् इत्युक्ते भिन्नतां प्रदर्शयति. चित्रम् अधस्तनचित्रं पश्यतु, अधस्तनचित्रे किं किम् अस्ति, किं कुत्र अस्ति इति वदतु. अधोभागे जलम्
जलत्वं प्रतियोगिता अस्ति. अस्तु, त्रीणि विषयः. जलं तस्य जले जलत्वमस्ति, जले प्रतियोगिता अपि अस्ति. तर्हि जलाभावे जलत्वं नास्ति, जलाभावे केवलम् अनुयोगिता अस्ति
इति सत्यमेव. अत्र वार्ता का इति चेत्, जले यः धर्मः अस्ति जलत्वं, सः अवच्छेदकधर्मः. कस्य अवच्छेदकधर्मः?
जलाभावस्य अवच्छेदक
न, अवच्छेदकधर्मः कमपि अवच्छेदयति. कम् अवच्छेदयति?
जलम् अवच्छेदयति.
प्रथमवाक्यं भवान् यद् पठितवान् तत्र किम् अस्ति, पुनः पठतु. प्रतियोगिनी,
प्रतियोगिनी यत् विशेषणं, प्रतियोगिनः उल्लेखः येन रूपेण, प्रतियोगिनी यत् विशेषणं, यत् इत्युक्ते अत्र यस्य वा?
यत् इत्युक्ते विशेषणस्य, विशेषणम् इति. महोदय पूर्णतया एकवारं वाक्यं पठतु.
अस्तु, प्रतियोगिनी यत् विशेषणं, प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते, तत् प्रतियोगितायाः अवच्छेदकम्.
हा, कस्य अवच्छेदकं तर्हि?
प्रतियोगितायाः अवच्छेदकम्.
हा, तर्हि जलत्वम् अवच्छेदकम् इति चेत् अवच्छेद्या का अत्र?
अवच्छेद्य इति प्रतियोगिता
इति एव अस्माकं विषयः खलु. आं, समीचीनं, समीचीनम्.
ओ, अस्तु अस्तु.
वयं किं कुर्वन्तः स्मः, प्रतियोगिता कुत्र कुत्र अस्ति इति दृष्टवन्तः किल. बहुत्र प्रतियोगिता अस्ति, एका प्रतियोगिता अपरस्याः भिन्ना इति कथं जानीमः? अवच्छेदकधर्मेण इति. अस्तु, इदानीं भवान् वदतु, स्वातीनक्षत्रीयवृष्टिजलाभावः इति चेत् तत्र प्रतियोगी कः अथवा प्रतियोगी किम्?
स्वातिजलनक्षत्रं, स्वातिनक्षत्रजलं.
हा, स्वातिनक्षत्रीयवृष्टिजलम् इति प्रतियोगी. तस्मिन् किं वर्तते?
तस्मिन् स्वातिनक्षत्रीयवृष्टिजलत्वं वर्तते.
एकनिमिषः, सः किमपि वदति. एकनिमिषः. हा, समीचीनं महोदय. स्वातिनक्षत्रीयवृष्टिजलत्वं वर्तते, अपि च अन्यत् किं वर्तते तत्र?
जलमपि वर्तते.
न महोदय, अभावस्य विषयः यथा
भवति.
तर्हि जले प्रतियोगिता अस्ति खलु?
आमाम्. जलस्य अभावे तर्हि स्वातिनक्षत्रीयवृष्टिजलस्य अभावः.
महोदय, एतत् सर्वं विस्मरतु. यथा भवान् उक्तवान् जले जलत्वम् अपि च जले प्रतियोगिता, तद्वदेव स्वातिनक्षत्रीयवृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलत्वम् अपि च प्रतियोगिता अपि खलु?
आमामां. तस्य अवच्छेदकं स्वाति नक्षत्रीयवृष्टि जलं स्वास्ति तस्य प्रतियोगितायाः अवच्छेदकं भवति.
हा, स्वातिनक्षत्रीयवृष्टिजलत्वम् इति तत्र प्रतियोगितायाः अवच्छेदकं भवति. परन्तु केवलं सामान्यजलाभावः इत्यस्मिन् स्थले प्रतियोगितायाः अवच्छेदकं किम्?
जलत्वमेव सामान्यजलस्य अवच्छेदकं.
सामान्यजलाभावस्य प्रतियोगितायाः अवच्छेदकं.
प्रतियोगितायाः अवच्छेदकम्.
वयम् अत्र किं कुर्वन्तः स्मः इति अवगच्छन्तु. प्रतियोगिता भिन्ना इति प्रदर्शयितुम् इच्छामः, खलु? एकवारं जलाभावस्थले जलत्वम् इति अवच्छेदकं, तेन जानीमः ओ अस्तु इयं प्रतियोगिता भिन्ना. स्वातिनक्षत्रीयवृष्टिजलाभावस्थले स्वातिनक्षत्रीयवृष्टिजलत्वम् अवच्छेदकं, तत्र जानीमः अस्तु तत्र स्वातिनक्षत्रीयवृष्टिजलत्व अवच्छिन्ना प्रतियोगिता. अपरत्र वृष्टिजलाभावस्थले जानीमः यत् वृष्टिजलत्व अवच्छिन्न प्रतियोगिता, सा अपि भिन्ना इति अवच्छेदक अवच्छेद्य अवच्छेदकभावं कल्पयामः. बुद्धं वा? सर्वेषां मनसि स्पष्टता अस्ति वा? अवच्छेद्य अवच्छेदकभावः इति एकः मुख्यसिद्धान्तः.
भगिनि अत्र यदा वयं
एकनिमिषः, विजया भगिन्याः प्रश्नः आसीत्. भगिनी, प्रश्नः कः?
भगिनी, तत्र चित्रमस्ति खलु एकत्रिंशत्, एकवारं
भगिनि अस्तु अग्रे गच्छेम. भगिनि, भवती तत्र प्रश्नं पृच्छतु. रघुपति महोदय,
यदा वयं स्वीकुर्मः नीलपट, तत्र नीलपटस्य अभावः, अत्र नीलत्वं वा या पटत्वं वा या नीलपटत्वं भवति अवच्छेदक?
भवतः अभावकथनं कथमासीत्? अभावस्य
नीलपटस्य अभावः,
नीलपटाभावः इति
नीलपटाभावः
तदा यत् जगन्नाथमहोदय पठितवान्, प्रतियोगिनी यद् विशेषणं येन रूपेण उल्लेखः येन धर्मेण उल्लेखः तदेव अवच्छेदकं, तर्हि आहत्य नीलपटत्वम् इति स्वीकर्तव्यम्. न केवलं नीलत्वं, न केवलं पटत्वं, परन्तु वस्तुतः नीलत्वं तु नीलरूपे अस्ति, न तु नीलपटे, किल? नीलरूपं तस्मिन् नीलत्वम् अस्ति.
नीलपटत्वं पटत्व अभावः
इति चेत् नीलपटत्वम् इति स्वीकार्यं भवति अवच्छेदकरूपेण. अस्तु, समीचीनम् इति अवच्छेद्य अवच्छेदकभावः इति. अग्रिमपृष्ठं गच्छन्तु कृपया, चतुर्विंशतितमपृष्ठे यद् अधुना चर्चितम् उपरितनचित्रे तदेव अस्ति. वृष्टिजलमस्ति, वृष्टिजले वृष्टिजलत्वम् अस्ति, अपि च तत्र प्रतियोगिता अस्ति वृष्टिजलाभावं प्रति, अतः तस्याः प्रतियोगितायाः अवच्छेदकमस्ति वृष्टिजलत्वम्. एवमेव स्वातिनक्षत्रीयवृष्टिजलमस्ति, तस्मिन् स्वातिनक्षत्रीयवृष्टिजलत्वम्, अपि च तस्य अभावस्य प्रतियोगिताया सा अवच्छिन्ना भवति स्वातिनक्षत्रीयवृष्टिजलत्वेन इति वयं चर्चितवन्तः. इतः अग्रे पृष्ठसङ्ख्या 31, क्षम्यतां 24 इति, तत्र चित्रसङ्ख्या 31, एकत्रिंशत्तमचित्रे किं किम् अस्ति इति विजया भगिन्याः प्रश्नः आसीत्. अस्तु भगिनी, भवती किञ्चित् विवृणोतु भगिनि, तत्र किं कस्मिन् अस्ति इति.
शृणोमि एव. अस्तु भगिनि, वदामि. जले जलत्वमस्ति.
सत्यं, समीचीनम्. अस्तु,
जले जलत्वमस्ति, जलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः तत्र एव क्लेशः अस्ति भगिनि. किमर्थम् अधः शरः गच्छति, किं तत्र योजयामः इति.
अधोगामिनी शरे किं योजयति सामान्यतया? आश्रयः एव योजयति खलु.
आश्रयः एव
समीचीनतया उक्तवती. आश्रयः इति योजयतु. कस्य वर्णनं करोति इति चिन्तयतु. जले जलत्वमस्ति, अपि च जले प्रतियोगिता अस्ति, तर्हि जलनिष्ठ जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता. भगिनी कोऽपि ध्वनिः अस्ति भवत्याः पृष्ठभागे. देर् इस् अ सौण्ड्. अस्तु, हा, जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता अथवा अवच्छेद्यतावती प्रतियोगिता इति वदामः. तावत्पर्यन्तं स्पष्टं वा भगिनि?
पुनः
प्रतियोगिता कां निरूपयति तदनन्तरं? विजया भगिनी, समीचीनं भगिनि. अनुयोगितां निरूपयति. तर्हि जलनिष्ठ जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इति बुद्धं वा?
हा, अस्तु भगिनि, बुद्धम्.
अग्रिमचित्रं वर्णयति वा वृष्टिजलम् इति? अग्रिमपृष्ठे यद् चित्रमस्ति तद्वर्णयति.
वृष्टिजले वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय आश्रय निरूपित
अधुनैव पृष्टवती आश्रयः इति उक्त्वा कुत्र गन्तव्यं? प्रतियोगिता पर्यन्तं गन्तव्यं खलु?
आम् आम्, आश्रयः आश्रय जलनिष्ठ जलनिष्ठ.
एकवारं पुनः वदतु वृष्टिजलत्वम् इत्यस्मात् आरभ्य.
वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यताश्रय आश्रय जलनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रय अभावः.
बहु समीचीनमस्ति भगिनि. अग्रिमचित्रमपि प्रयत्नं करोति वा? यत्र
स्वातिनक्षत्रीयवृष्टि वृष्टिजलनिष्ठ वृष्टि स्वातिनक्षत्रे वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता स्वातिनक्षत्रे वृष्टिजले निरूपित अनियोगिता आश्रय अभावः.
प्रतियोगिता निरूपित अनियोगिता इति आगच्छेत् वाक्ये, यतोहि प्रतियोगिता अनुयोगितां
निरूपित अनियोगिताश्रय अभावः.
तर्हि स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता इति वक्तुम् इच्छति भवती खलु? एकवारं शृणोतु. अस्तु, स्वातिनक्षत्रीयवृष्टिजलनिष्ठ स्वातिनक्षत्रीयवृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः. तावद्बुद्धम्?
आं भगिनि.
प्रतियोगिता अनुयोगिता तयोः मध्ये अस्ति निरूप्यनिरूपकभावः इति मनसि भवेत्. अपि च अवच्छेदकता अवच्छेद्यता तयोः मध्ये अस्ति निरूप्यनिरूपकभावः इति मनसि सर्वदा भवेत्. अपि च यथा सामान्यं वयं जानीमः चित्रसङ्ख्या 31 इत्यत्र जलत्वम् इति अवच्छेदकं, तत्र अवच्छेदकता, प्रतियोगिता अवच्छेद्या इति कृत्वा तस्याम् अवच्छेद्यत. एवमेव अग्रिमपृष्ठे 32 इत्यत्र वृष्टिजलत्वे अवच्छेदकता, प्रतियोगितायाम् अवच्छेद्यत. तर्हि सर्वत्र प्रतियोगिताः अवच्छेद्याः भवन्ति, अपि च तत्र तत्र यद् या जातिः अथवा यः धर्मः विद्यते सः धर्मः अथवा जातिः भवति अवच्छेदकम्, अनेन प्रतियोगिता भिन्ना इति जानीमः. उद्दम् वा? अस्तु अस्तु, सर्वेषां मनसि
बुद्धं भगिनि, बुद्धं
समीचीनं. सीमा भगिनि,
क्षम्यतां भगिनि, एकः प्रश्नः अस्ति. यदि वयं वदामः जलनिष्ठजलत्वं, किन्तु जलत्वं सर्वदा जले एव भवति, अतः तत् वक्तव्यम् अस्ति न वा? एवं जलत्वं यदि अवच्छेदकता अस्ति तर्हि प्रतियोगिता जले एव भवति, अतः जलनिष्ठप्रतियोगिता इति वक्तव्यं न वा? कृपया.
नास्ति, आवश्यकता नास्ति भगिनि, केवलम् अभ्यासार्थम् उक्तवती. भवत्याः चिन्तनं समीचीनमस्ति. एकवारं जलत्वावच्छिन्नप्रतियोगिता इति वदामश्चेत् तस्य अर्थः कः? प्रतियोगिता जले अस्ति इति एव किल. वारं वारं जलनिष्ठप्रतियोगिता इति वदनस्य आवश्यकता नास्ति, परन्तु अभ्यासः भवतु इति एव कारितवती तथा. अस्तु
अस्तु भगिनि,
हा समीचीनम्. अस्तु, अग्रिमपृष्ठं पश्यन्तु कृपया. तत्र निरूप्यनिरूपकभावः अवच्छेद्यावच्छेदकभावः सर्वत्र भवति इति अस्ति, इति सत्यमेव. अत्र अग्रिमचित्रे प्रदर्शितमस्ति, यज्ञदत्ते आधेयता अस्ति. यज्ञदत्तः आसने उपविष्टः चेत् तस्मिन् आधेयता अस्ति, आसने अधिकरणता अस्ति, अपि च आधेयता बहुत्र वर्तते, न केवलं यज्ञदत्ते. तर्हि इयम् आधेयता अपरस्याः भिन्ना कथम् इति ज्ञातुम् इच्छामः चेत् यज्ञदत्तत्वम् इति धर्मम् उपयुज्य वर्णनं कुर्मः. यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता निरूपित अधिकरणता, एवमेव आसनम् इत्यस्मिन् अधिकरणता अस्ति. अधिकरणता बहुत्र वर्तते, न केवलम् आसने. द्रव्ये गुणः अस्ति इति चेत् द्रव्यम् अधिकरणं, तस्मिन् अधिकरणता वर्तते. परन्तु इयम् अधिकरणता अपरस्याः अधिकरणतायाः भिन्ना इति कथं जानीमः? आसनत्वावच्छिन्न अधिकरणता इयं तदर्थं जानीमः. इत्युक्ते आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अधिकरणता इयम् इति जानीमः. तर्हि चित्रद्वयम् अस्ति वस्तुतः एकस्मिन्नेव भागद्वयं, तद् मिलित्वा अपि वक्तुं शक्यते इति उदाहरणमस्ति अत्र. अस्तु, अग्रे अस्माकं मुख्यः विषयः अस्ति अभावस्य चतुर्विधत्वम् इत्यत्र किञ्चित् पुनः स्मरणं कुर्मः. रघुपतिमहोदय वदति वा चतुर्विध अभावाः के के इति?
चतुर्विध अभावः
प्रश्न, एकनिमिषः, प्रश्नः अस्ति वा कस्यचित्? कोऽपि प्रश्नः? अस्तु महोदय, वदतु.
चतुर्विधाः भवन्ति, प्राग् अभावः, प्रध्वंसाभावः, अत्यन्त अभावः, अन्योन्य अभावः. अत्र अत्यन्त अभावस्य त्रय प्रभेदाः सन्ति, सामान्य अभावः, विशेषाभावः, विशेषविशेष अभावः.
हा समीचीनम् इति अस्माभिः दृष्टमेव. अस्तु सम्यक् महोदय, अधुना किञ्चित् वदति वा प्राग् अभावः इत्युक्ते किम् इति?
प्राग् अभावः इत्युक्ते यस्य वस्तोः यस्य वस्तोः निर्माणस्य
एवं करोतु, तत्र प्रथमपरिच्छेदे तथा चित्रस्य अनन्तरम् अन्तिमवाक्यं पठतु. तदा तादृशीं,
यदा तादृशी घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटः भविष्यति इति, यत् एतादृशज्ञानं घटाभावं प्रकाशयति, तत् प्राग्भावः. यत्र यत्र यदा वयं घटस्य उत्पादनस्य सामग्री भवति, घटस्य उत्पादनं न अभवत् तदा एव यत् ज्ञानं भवति यत् अत्र घटस्य घटः भविष्यति इति यत् ज्ञानमस्ति तत् प्राग्भावः इति निर्दिष्टम्.
हा, बहु समीचीनं महोदय. घटस्य प्राग्भावः, घटस्य उत्पत्तेः पूर्वम्, उत्पत्तेः प्राक् घटसामग्रीं दृष्ट्वा प्रतीयमानः ज्ञायमानः अभावः घटप्राग्भावः इति उच्यते. अस्तु, यथा सामान्यम् अत्र प्रतियोगी कः, अनुयोगी कः?
कुत्र
घटप्राग्भावस्थले प्रतियोगी कः, अनुयोगी कः?
घटाभावस्थले प्रतियोगी घटः, अनियोगी घटप्राग्भावः.
बहु समीचीनम् इति सामान्यविचारः. यत्र कुत्रापि अभावः भवति तत्र यस्य अभावः सः प्रतियोगी, अत्र तु घटः, यतोहि घटप्राग्भावः इति विषयः, अपि च घटप्राग्भावः अनुयोगी, तस्मिन् अनुयोगिता वर्तते इति. सम्यक्. अस्तु, अग्रिमपृष्ठं प्रति गच्छन्तु कृपया. तत्र पृष्ठसङ्ख्या 28 इति, तत्रापि निरूप्यनिरूपकभावः सर्वत्र भवति, यत्र यत्र ससम्बन्धिकपदार्थद्वयं तत्र तत्र इति एव प्रदर्शितम् अत्र. घटनिष्ठप्रतियोगिता निरूपित, घटप्रागाभावनिष्ठ अनुयोगिता इति. श्रीधर् महोदय, किञ्चिदेव घटप्रागभावः इति जातः, किञ्चिदेव घटस्य प्रध्वंसाभाव अपि च अत्यन्ताभावविषये वदति वा?
आं भगिनि, चित्रसङ्ख्या
36 इति न केवल एवमेव पृष्टवती. अधुना प्राग्भावः इति रघुपतिमहोदयेन उक्तं, भवान् प्रध्वंसाभावः अथवा ध्वंसः इत्यस्य विवरणं करोतु किञ्चित्.
आम् यदा घटः अस्ति, इदानीं घटः अस्ति, तस्मिन् उपरि किमपि पतति, घटस्य नाशः भवति. वयं ज्ञातुं शक्नुमः इदानीं घटः नास्ति, पूर्वे घटः आसीत् इति. अभावः इदानीं यः अभावः अस्ति तस्य नाम घटध्वंसः अभावः.
समीचीनं, घटध्वंसः इति अत्र उदाहरणमस्ति. महोदयेन यदुक्तं, घटः अस्ति, तस्य उपरि मुद्गरपातनं, मुद्गर इत्युक्ते हेमर् पातयामश्चेत् घटस्य नाशः, ध्वंसः भवति. अतः सः अपि घटाभावः, घटध्वंसः इत्युक्ते घटाभावः एव. अस्तु महोदय, अत्र अनुयोगी कः, प्रतियोगी कः?
प्रतियोगी घटः एव, अनुयोगी घटध्वंसभावः, ध्वस्ताभावः.
घटध्वंसः अथवा घटध्वंसाभावः इति वक्तुं शक्यते. अस्तु, अपि च उपरितनचित्रे यथा सामान्यं घटनिष्ठप्रतियोगिता निरूपित,
घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आशयः घटध्वंसः.
घटध्वंसः, ध्वंसः इत्युक्ते अभावः, एकविध अभावः इति. अस्तु, अत्यन्ताभावस्थले किं वदति, किं वक्तुं शक्नोति? अग्रिमवाक्यत्रयं पठतु. अत्यन्ताभावस्तु,
अत्यन्ताभावस्तु प्राक् निरूपितः, भूतले घटो नास्ति इति अभावः. घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति या प्रतियोगिता तन्निरूपः अभावः. एवं पटो नास्ति इति पटत्वा छिन्न प्रतियोगिता ताकः.
किं बद्धम्?
अत्यन्त अभावे त्रिविधाः सन्ति, प्राक्, ध्वंसः.
न न न महोदय, तथा नास्ति एव. चित्रं पश्यतु, पूर्वतनपृष्ठे चित्रं यदि अस्ति तद् पश्यतु.
अत्यन्तभावे सः सामान्यभावः विशेषभावः विशेषविशेष वृष्टिजलं सामान्यजलं वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलम्
इति तयोः तेषाम् अभावः एव अत्यन्ताभावः तत्तु प्रागभावः नास्ति खलु सामग्रीं दृष्ट्वा प्रतीयमानः अभावः नास्ति प्रध्वंसाभावः अपि नास्ति किन्तु अत्यन्ताभावः इत्युक्ते किं सामान्यरीत्या यदा वदामः भूतले घटो नास्ति तादृश अभावः अत्यन्ताभावः अपि च हा तत्र भूतले घटो नास्ति इत्युक्ते कस्य अभावः
भूतले घटे नास्ति इति अत्यन्ताभावः
हा कस्य अत्यन्ताभावः
घटस्य अत्यन्ताभावः
सत्यं श्रीधर् महोदय कस्य अत्यन्ताभावः
घटस्य अत्यन्ताभावः
प्रतियोगी कः
प्रतियोगी घटः
प्रतियोगिता कुत्र वर्तते
प्रतियोगिता घटे वर्तते
अस्तु तर्हि प्रतियोगितायाः अवच्छेदकं किं तत्र
घटत्वं
घटत्वम् इत्येव द्वितीयवाक्यं पठतु घटत्व
घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति या प्रतियोगिता तन्निरूपकः अभावः
इति घटाभावः एवमेव
पटो नास्ति इति पटत्वचिह्नप्रतियोगिताकः
पटो नास्ति इति कीदृश अभावः इति चेत् पटत्वावच्छिन्नप्रतियोगिताकः तद् दीर्घं वाक्यमस्ति खलु घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता तमेव तदेव वाक्यं लघुना मार्गेण पटत्वावच्छिन्नप्रतियोगिता कः अभावः इति उक्तम् घटत्वावच्छिन्न अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः तस्य निरूपकः अभावः इति वदनस्य स्थाने घटत्वावच्छिन्नप्रतियोगिता कः अभावः इत्यपि वक्तुं शक्यते प्रतियोगिता कः इति अभावस्य विशेषणमस्ति प्रतियोगिता यस्य सः तादृश अभावः कीदृशी प्रतियोगिता पटत्वावच्छिन्नप्रतियोगिता घटत्वावच्छिन्नप्रतियोगिता इत्यादिकं वक्तुं शक्यते बुद्धं वा
बुद्धम्
अस्तु इति चतुर्विध अभावेषु अभावत्रयं दृष्टवन्तः अग्रे गत्वा अन्योन्याभावः इति ज्ञातुं तादात्म्यसम्बन्धस्य निरूपणम् आवश्यकम् आसीत् तादात्म्यसम्बन्धः इत्युक्ते कः इति ज्ञातव्यम् आसीत् अस्तु एतावता वयं जानीमः संयोगः इति एकः सम्बन्धः अस्ति संयोगः इति सम्बन्धः द्रव्ययोः मध्ये भवति उत्पीठिकायां दूरवाणी अस्ति संयोगसम्बन्धेन उत्पीठिकायां सङ्गणकम् अस्ति संयोगसम्बन्धेन इत्यादिकं तादृशसम्बन्धः नास्ति अभावस्थले अपि च समवायः पञ्चसु स्थलेषु एव वर्तते इति जानीमः गुणगुणिनोः क्रियाक्रियगतोः जातिव्यक्तोः अवयवावयविनोः विशेषनित्यद्रव्ययोः एव समवायः परन्तु अधुना प्रश्नः अस्ति यत् अभावः भूतले केन सम्बन्धेन वर्तते इति प्रश्नः अभावः भूतले स्वरूपसम्बन्धेन भवति अपि च प्रतियोगिता प्रतियोगिनी स्वरूपसम्बन्धेन भवति पूर्वोक्त अवच्छेदकता अवच्छेद्यता इत्यादिकमपि स्वरूपसम्बन्धेन भवति इति अग्रिमचित्रं चित्रसङ्ख्या 38 इति पश्यन्तु 38 इति तत्र भूतलमस्ति भूतले घटत्वाभावः इति अस्तु घटाभावः इति वक्तव्यं तत्तु स्वरूपसम्बन्धेन स्वरूपसम्बन्धस्य एकः प्रभेदः अस्ति दैशिकविशेषणता तर्हि दैशिकविशेषणता स्वरूपेण भूतले वर्तते प्रतियोगिता घटे अपि स्वरूपसम्बन्धेन अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन इति आगतम् परन्तु अन्योन्याभावं ज्ञातुं तादात्म्यसम्बन्धः इति ज्ञातव्यम् अभवत् तादात्म्यसम्बन्धः इत्युक्ते किम् इति जानीमः अग्रे अपि च तादात्म्यसम्बन्धं ज्ञातुम् अत्र कारणम् इति वक्तुं निकषाः के इति ज्ञातव्यम् आसीत्। तर्हि मेहुलमहोदय किञ्चित् स्थूलरीत्या वदति वा, अग्रिमपृष्ठमपि पश्यतु। अस्तु, सर्वे अग्रिमपृष्ठं प्रति गच्छन्तु, पृष्ठसङ्ख्या 30 इति। तत्र हा, तत्र मेहुलमहोदय प्रायः वदतु कारणम् इति वक्तुं निकषाः के इति, घटः दण्डः स्वीकृत्य।
आम्, तत्र त्रीणि कारणानि सन्ति। त्रयः निकषाः सन्ति। तत्र प्रथमकारणम् अस्ति, प्रथमनिकषः अस्ति कार्यस्य कार्येन कारणेन कार्याधिकरणे स्थातव्यम्। इत्युक्ते कारणं तत्र कार्याधिकरणे भवेत्। द्वितीयनिकषः अस्ति कार्याधिकरणे कारणं सर्वदा भवेत्। अनन्तरं तीसरः अस्ति तेन इत्युक्ते कारणेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अपि भवेत् इति त्रयः निकषाः सन्ति।
अस्तु, एकम् उदाहरणं स्वीकरोतु महोदय। इदानीं दण्डः इति घटस्य कारणम्।
दण्डः घटस्य कारणम् अस्ति। तत्र घटनिर्माणार्थं सामग्री मध्ये दण्डः दण्डादयः सामग्रीः अस्ति, अतः तत्र भवेत्। इत्युक्ते कार्याधिकरणे दण्डः अस्ति, अतः घटस्य कारणमस्ति, अतः प्रथमनिकषः अस्ति कारणं तत्र कार्याधिकरणे भवेत्। अनन्तरं
दण्डः अस्ति वा, घटः इति कार्यं, कार्यस्य अधिकरणं यत्किमपि भवतु, भूतलं वा यत्किमपि, तत्र दण्डः अस्ति वा?
तत्र दण्डः अपि च मृत्तिका अपि च अन्यत् अपि सामग्रीम् अस्ति घटस्य निर्माण।
अस्तु, तर्हि प्रथमनिकषः अथवा कण्डीशन् इति सेटिस्फैड् अभवत्, कार्याधिकरणे अस्ति इति। द्वितीयः कः?
द्वितीयनिकषः अस्ति कार्याधिकरणे सर्वदा स्थातव्यम्। इत्युक्ते तत्र उदाहरणार्थे एक नागरिकः एकः जनः अस्ति, तत्र घटोत्पत्तिः किं भवति इति जानीतुं तत्र ज्ञातुं तत्र गच्छति। परन्तु इत्युक्ते नागरिकः तत्र घटनिर्माणसमये तत्र अस्ति, परन्तु तत्तु घटस्य कारणं नास्ति। किमर्थम् इत्युक्ते घटनिर्माणार्थं तस्य आवश्यकता नास्ति, तत्तु केवलं तत्र ज्ञातुं तत्र अस्ति। अतः नागरिकः तत्र अस्ति परन्तु सर्वदा नास्ति। घटनिर्माणार्थानन्तरं सः अपगच्छति, अतः तत्र कारणं कार्याधिकरणे सर्वदा भवेत् इति द्वितीयनिकषः अस्ति।
सत्यम् इति द्वितीयनिकषः, किन्तु दण्डचक्रादयः तु सर्वदा भवन्ति।
आम् आम्, दण्डचक्रादयः सर्वदा भवति। अनन्तरं तिस्रः निकषः अस्ति कार्याधिकरणे तृतीयः। अस्तु, क्षम्यतां, तृतीयः निकषः अस्ति कार्याधिकरणे दण्डादयः इति सामग्री अस्ति, तत् सर्वसामग्री घटोत्पत्तिपूर्वे अपि तत्र अस्ति। अतः कारणं कार्याधिकरणे कार्यस्य उत्पत्तिपूर्व अपि तत्र भवेत् इति तृतीयः निकषः।
हा, तृतीयः निकषः, अनेन दण्डः इति त्रीणपि निकषान् पालयति इति कृत्वा दण्डः
घटनिर्माणस्य कारणम्
इति अस्ति। अस्तु, अग्रिमविषयः अस्ति। धन्यवादः महोदय। तर्हि अग्रिमविषयः अस्ति तादात्म्यस्य अस्वीकारे। प्रश्नः अस्ति वा?
आम् आम्, अत्र तृतीयनिकषः एव आवश्यकः कारणस्य निर्णयार्थम्।
किमर्थं तथा वदति?
The first two are included in the third. Sanskrite kimad?
Satyam, satyam eva. Murli Mahodaya, aham bhavantam. Prashna asti va Mahodaya?
Nasti bhagini. भगिनि
मम एकः प्रश्नः
एकनिमिषः एकनिमिषः सीमा भगिनी भवती यद्वदति तत् समीचीनमेव अन्तर्भूतम् अस्ति इति खलु अन्तर्भूतम् इति सत्यं किन्तु सोपानमार्गेण सोपानेन चिन्तयामश्चेत् कार्याधिकरणे भवेत् कार्याधिकरणे सर्वदा भवेत् कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति आगच्छति श्रीधर महोदय
चक्रचलनार्थं विद्युत् आवश्यकम् अस्ति पूर्वस्मिन् क्षणे विद्युत् नास्ति सर्वदा अपि नास्ति तथापि विद्युत् कारणम् एव
महोदय सर्वदा इति चेत् अधुना घटस्य निर्माणात् प्राक् अपि च घटस्य निर्माणात् अनन्तरम् इति चिन्तयतु तावत्पर्यन्तम् इति तावत् टैम् स्पेन् सर्वदा इति स्वीकर्तव्यं भवान् तथा चिन्तयति इति चेत् तथा कुलालः अपि कारणं खलु एकं कारणं कुलालः इत्युक्ते कुम्भकारः सः अपि सर्वदा न भवति घटस्य अथवा दण्डस्य पुरतः यत्र यदा निर्माण आवश्यकता अस्ति तदा भवति किल तर्हि सर्वदा इत्यस्य टैम् स्पेन् किम् इति चिन्तनीयमस्ति कार्योत्पत्तिपूर्वक्षणे आरभ्य कार्योत्पत्तिसमापनानन्तरमपि यत्किमपि तत्र भवति तत् कारणं तदर्थमेव भगिनी उक्तवती यद् कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं तत् पर्याप्तम् इति अस्तु अस्तु सम्यक् तर्हि अन्योन्याभावः इत्युक्ते किम् इति ज्ञातुं तादात्म्यसम्बन्धः इत्यस्य ज्ञानम् आवश्यकम् इदानीं कः वदति विद्याभगिनी नास्ति विद्याभगिनी अस्ति न वा आण्ड्रे महोदय किञ्चित् वदति वा कपालः घटस्य कारणं कथं भवति इति
भवतु प्रयत्नं करोमि तत्र इदानीम् अस्माभिः उक्तं तेन तत्र यत् कारणं तेन कार्याधिकरणे कार्योत्पत्तिः पूर्वक्षणे सर्वदा स्थातव्यम् इति उक्तम् अस्माभिः इदानीम् इदानीं कपालं घटम् उद्दिश्य पश्यामः इति चेत् तत्र कपालः पूर्वक्षणे एव तिष्ठति अपि च एवं तथा एव समस्या आगच्छति इदानीं घटाधिकरणे स्थातव्यं कारणेन इदानीं घटाधिकरणं नाम किं कपालः एव इदानीं तत्र विचारः भवति कपालः यः कपालः सः घटकारणत्वेन स्वीकृतः कपालः सः घटाधिकारणेपि तत्र अन्वेषणीयः भवति इदानीं घटाधिकारणं नाम कपालः तर्हि कपालः कपाले एव विद्यते इदानीं कपालः कपाले केन सम्बन्धेन विद्यते इति चेत् तर्हि तत्र ये सम्बन्धः अस्माभिः पूर्वं दृष्टाः ते तत्र सर्वे अत्र न स्युः अत एव अन्य नाम किं सम्बन्धः अपि च समवायः अपि च अन्यत् किं स्वरूपसम्बन्धः तत्सर्वं तेन तान् उपयुज्य तत्र कपालः कपाले तत्र साधयितुं न शक्यते अत एव अन्यः कश्चन सम्बन्धः अपेक्षितः भवति सः तादात्म्यसम्बन्धः नाम येन कपालः कपाले येन पदार्थः स्वस्मिन् एव तिष्ठति सः तादात्म्यसम्बन्धः अत एव तदात्म्यसम्बन्धेन कपालः कपाले एव तिष्ठति कपालः घटाधिकरणे कपाले स्वस्मिन् एव तिष्ठति सः तदात्म्यसम्बन्धः
हा धन्यवादः हा समीचीनं महोदय धन्यवादः इति अस्ति सर्वैः बुद्धम् इति चिन्तयामि कपालः कार्याधिकरणे घटाधिकरणे इत्युक्ते स्वस्मिन् केन सम्बन्धेन तिष्ठति इति वार्ता यतोहि घटस्य कार्याधिकरणं स्वयं कपालः इति महोदयेन उक्तं घटः कपाले उत्पद्यते इति नैयायिकानां प्रतीतिः कपालः कार्याधिकरणं कार्याधिकरणे कारणेन स्थातव्यं कपालः कारणमपि तर्हि कपालः कपाले कपालः कार्याधिकरणे घटाधिकरणे केन सम्बन्धेन भवति इति चेत् तादात्म्यसम्बन्धेन इति कृत्वा तादात्म्यसम्बन्धेन भूत्वा कपालः स्वस्मिन् घटं जनयति इति चेत् तदा कपालः घटस्य कारणम् इति स्वीकर्तुं शक्यते इति तादात्म्यसम्बन्धस्य अवगमनार्थम् एतद् उदाहरणं दत्तमासीत् अपि च कार्यकारणभावस्य निकषाः के इति अपि दृष्टमासीत् अधुना तादात्म्यसम्बन्धस्य प्रमुखः प्रयोगः अस्ति अन्योन्याभावनिरूपणम् इति तत्र पुष्पा भगिनी अग्रिमपृष्ठे पेज् 31 इति सर्वोऽपि पदार्थः इति परिच्छेदं पठति वा पुष्पा भगिनी अस्ति
अस्मि 31
हा अग्रिमपुटे पेज् 31 सर्वोऽपि पदार्थः इति द्वितीयपरिच्छेदः
सर्वोऽपि हा सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति अयम् एव च भेदः प्रतियोगिनं विहाय सः सर्वत्र भवति एवं पटः न इति भेदः पटं प्रतियोगिनं विना विहाय सर्वत्र भवति अयम् एव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते अस्तु
सारांशत्वेन वदतु भगिनि किम् अस्तु किञ्चित् समयाभावे सति अहमेव किञ्चित् तत्र वदिष्यामि वक्ष्यामि तत्र सर्वोऽपि पदार्थाः तादात्म्येन स्वस्मिन् भवति इति जानीमः खलु सर्वोऽपि पदार्थाः तादात्म्येन कुत्र न भवति
सर्वत्र
हा समीचीनं भगिनि जगति सर्वत्र खलु घटः घटं विहाय अपरत्र तादात्म्येन न तिष्ठति तर्हि सर्वत्र घटस्य अभावः वर्तते तादात्म्यसम्बन्धेन इति वक्तुं शक्यते न वा तादृश अभावस्य नाम किम्
अन्योन्याभावः
बहु समीचीनं भगिनि अन्योन्याभावः अथवा भेदः प्रतियोगिनं विहाय सः सर्वत्र भवति प्रतियोगी इति घटः तं विहाय प्रतियोगिनं विहाय अन्योन्याभावः घटस्य सर्वत्र जगति भवति एवमेव पटाभावः पटं विहाय प्रतियोगिनं विहाय सर्वत्र भवति तर्हि अन्योन्याभावस्थले तादात्म्यसम्बन्धस्य प्राधान्यमस्ति तादात्म्यसम्बन्धेन घटः अपरत्र नास्ति इति घटस्य अन्योन्याभावः पटस्य अन्योन्याभावः
अस्तु 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 तादात्म्यसम्बन्धेन घटः अन्यो सर्वत्र न अन्योन् सर्वत्र नास्ति तत्तु अन्योन्याभावः
घटस्य अन्योन्याभावः अस्तु समीचीनम् अस्तु अग्रिमविषयः अस्ति अधिकरणस्यापि अनुयोगी इति संज्ञा इति तर्हि एतावता वयं जानीमः अनुयोगी इत्युक्ते अभावः इति जानीमः एव परन्तु अत्र नूतनतया अनुयोगी इत्यस्य नामकरणम् अथवा संज्ञाकरणं जातम् न्यायशास्त्रग्रन्थेषु अधिकरणम् इत्यस्य अनुयोगी इति व्यवहारः दृश्यते इदानीम् अत्यन्ताभावस्थले यदि वयं वदामः भूतले घटः नास्ति इति तस्य अर्थः कः भूतले घटाभावः अस्ति इति अर्थः तदा घटः प्रतियोगी इति तु जानीमः अभावस्य प्रतियोगी परन्तु तत्र भूतलम् इति भवति अनुयोगी यतोहि भूतलम् इति अधिकरणमस्ति अभावस्य इति कृत्वा भूतलम् अस्ति अनुयोगी, नाम अधिकरणस्यापि अनुयोगी इति संज्ञा। भूतले घटाभावः इति अत्यन्ताभावस्य प्रतीतिः, अत्यन्ताभावस्य व्यवहारः। अत्यन्ताभावस्थले किं पश्यामः इति चेत्, अत्यन्ताभावस्थले अनुयोगीवाचकपदस्य नाम भूतलम् इत्यस्य सप्तमी विभक्ति, प्रतियोगीवाचकपदस्य घटः इत्यस्य प्रथमा विभक्ति, भूतले घटो नास्ति, भूतले घटाभावः इत्यत्र। परन्तु अन्योन्याभावस्थले भेदस्थले अनुयोगी प्रतियोगीवाचकपदाभ्याम्, अग्रिमपृष्ठं प्रति गच्छन्तु, अनुयोगी प्रतियोगीवाचकपदाभ्याम् अपि प्रथमा विभक्ति। अन्योन्याभावस्थले व्यवहारः एवं भवति, घटः पटः न, घटः पटः न इति वदामश्चेत् घटभेदः अथवा घटस्य अन्योन्याभावः पटे अस्ति इति अर्थः। पटे अस्ति इति वदामश्चेत् पटे इति अधिकरणं सप्तमी विभक्त्याम्, अधिकरणस्य अनुयोगी इति संज्ञा, अतः पटः अनुयोगी। घटभेदः, घट अन्योन्याभावः इति चेत् घटः प्रतियोगी। परन्तु व्यवहारः कथं भवति, घटः पटो न इति भवति। घटः पटो न इति वदामश्चेत् तत्र प्रतियोगी घटः, घटस्य भेदः अन्योन्याभावः पटे वर्तते, पटः अधिकरणं भूत्वा अनुयोगी, तर्हि प्रतियोगी अनुयोगी वाचकपदाभ्यां प्रथमा विभक्तिः। कुत्र इति चेत् अन्योन्याभावस्थले इति आगच्छति। घटः पटो न इति चेत् घटः प्रतियोगी, पटः अनुयोगी। एवमेव पटः घटो न इति वदामश्चेत् पटभेदः अथवा पटस्य अन्योन्याभावः घटनिष्ठः अथवा घटे वर्तते इति आगच्छति, घटः अनुयोगी भवति तदा। तत्रापि पटः घटः न इत्यत्र प्रतियोगिवाचकपदं पटः, अनुयोगीवाचकपदं घटः, उभयोः प्रथमा विभक्ति इति अन्योन्याभावस्य व्यवहारः। यद्यपि अनुयोगिता अपि च प्रतियोगिता तयोः आश्रयभेदः नास्ति, तथापि आश्रयभेदे अपि विभक्तिभेदः नास्ति, उभयोः प्रथमा विभक्ति इति आगच्छति। बुद्धम् अस्तु, हा समीचीनम्। अस्माकम् अग्रिमविषयः अस्ति ज्ञानं तद्विषयता इति। यथा एतत्तु स्मरणे स्यात्, यतोहि नूतनविषयः गतवर्गे एव कृतवन्तः। ज्ञानम् इति चेत् ज्ञानस्य विषयः भवति, अतः ज्ञानं विषयी इति वदामः। तर्हि राधिका भगिनी किञ्चित् स्मारयति वा, ज्ञानस्थले विषयता कुत्र, विषयिता कुत्र इति?
ज्ञाने विषयिता भवति, विषयता भवति यदि घटः इति चिन्तयामश्चेत् घटे विषयता भवति, ज्ञाने विषयिता भवति।
इत्युक्ते यदा घटः ज्ञानस्य विषयः भवति तदा, खलु? तदा ज्ञाने विषयिता अपि च घटे विषयता भवति। अपि च यथा वयं निरूपितवन्तः, ज्ञानं घटनिष्ठविषयतानिरूपकम् इत्युक्ते ज्ञानं घटनिष्ठविषयतां निरूपयति। चित्रं पश्यन्तु, ज्ञानात् एव प्रभा गच्छति, विषयता नामिका प्रभा घटस्य उपरि पतति इति कृत्वा ज्ञानं घटनिष्ठविषयतां निरूपयति। अतः वदामः यत् ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति इति। ज्ञानं विषयतासम्बन्धेन घटे अस्ति, यद्यपि विषयता इति सम्बन्धः घटे एव विद्यते अथवा विषये विद्यते, तथापि ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति अथवा विषये अस्ति, अपि च विषयः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति। विषयः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति इति निरूप्यनिरूपकभावः तत्रापि अस्ति। अपि च वृत्ति अनियामकसम्बन्धः इति वदामः, आरम्भे एव प्रश्नः आगतः आसीत्, ज्ञानमपि विषये वर्तते, विषयः अपि ज्ञाने वर्तते, इति कृत्वा तयोः मध्ये तादृशवृत्ति अनियामकसम्बन्धः अस्ति इति. अस्तु भगिनि, समापयतु तर्हि. भूतलं घटवत् इति अस्माकं ज्ञानमस्ति. अस्तु, भूतलं घटवत् इत्यत्र राधिका भगिनी कति विषयाः सन्ति?
तत्र तु विषयत्रयम् अस्ति. पश्यामश्चेत् घटः अस्ति, घटः भूतले अस्ति, तत्र संयोगः अस्ति, तदनन्तरं भूतलम् अस्ति. सो विषयतात्रयं, तदनन्तरं नाम अपि वदनीयं वा?
विषयत्रयं किं?
हा, घटः, तदनन्तरं घटः भूतले अस्ति, तत्र संयोगः, तदनन्तरं भूतले.
भूतलम् इति घटः इति एकः विषयः, संयोगः इति एकः विषयः, भूतलम् इति एकः विषयः अस्ति. भूतलं घटवत् इत्यत्र भूतलं घटवत् इति ज्ञानमस्ति चेत् सीमा भगिनी कृपया वदतु, भूतलं घटवत् इत्यत्र विशेषणं किं, विशेष्यं किम्?
भूतलं विशेष्यम् अस्ति, घटवत् विशेषणमस्ति.
सत्यं, भूतलं घटवत् इत्यस्य इत्यस्मिन् ज्ञाने घटः इति विशेषणं वस्तुतः.
अस्तु अस्तु, घटः विशेषणं,
घटवत् इति विशेषणवाचकपदम्.
ओके ओके.
घटवत् इति विशेषणवाचकपदं, विशेषणम् इति घटः, भूतलम् इति विशेष्यं, तयोः मध्ये कः सम्बन्धः?
तयोः मध्ये संयोगसम्बन्धः अस्ति.
तर्हि विषयत्रयम् अस्ति अत्र खलु, भूतलं, घटः, संयोगः. विषयत्रयम् अस्ति चेत् कति विषयताः सन्ति?
विषयता
समीचीनं, तिस्रः विषयताः सन्ति इति आगच्छति. तर्हि प्रत्येकस्याः विषयतायाः नामकरणमपि कृतं खलु? कस्य नाम किम् इति वदति वा?
विशेषणे यत् विषयता, या विषयता अस्ति तस्य नाम प्रकारता अस्ति. संयोगे या विषयता अस्ति तस्य नाम संसर्गता अस्ति. विशेषे या विषयता अस्ति तस्य नाम विशेष्यता अस्ति.
विशेष्यता अस्ति, बहु समीचीनम्. अस्तु, विषयत्रयम् अपि च भिन्नभिन्नविषयेषु विषयता अपि भिन्नाः. तर्हि प्रकारताख्यविषयता, प्रकारता नामिका विषयता कुत्र वर्तते इति चेत् घटे,
विशेषणे.
संसर्गताख्यविषयता कुत्र?
संयोगे,
संयोगे, सम्बन्धे. विशेष्यताख्यविषयता?
भूतले, विशेष्ये.
हा, भूतले विशेष्ये वर्तते, सम्यक्. अस्तु, अन्तिमः एकः सिद्धान्तः, पेज् नम्बर् 34, चतुस्त्रिंशत्तमपृष्ठे पश्यन्तु, समानाधिकरणम् इति दत्तमस्ति. समानाधिकरणम् इत्यस्य विवरणं किम् इति चेत्, अन्तिमवाक्यं पठामि तस्मिन् पृष्ठे, समानाधिकरणं ययोः तौ समानाधिकरणौ. समानाधिकरणं ययोः तौ समानाधिकरणौ इति बहुव्रीहिसमासः. अत्र अग्रिमचित्रं पश्यन्तु, अग्रिमपृष्ठे यद् चित्रमस्ति, चित्रसङ्ख्या 42 इति, घटः अपि च घटत्वं, घटे घटत्वमस्ति, घटे प्रतियोगिता अस्ति. घटः इति समानाधिकरणं, घटः इति समानाधिकरणं कयोः? उभयोः समानाधिकरणं घटः, घटत्वम् अपि च प्रतियोगिता, अनयोः. अतः बहुव्रीहिसमासं कृत्वा घटत्वम् अपि च प्रतियोगिता समानाधिकरणौ भवतः. समानाधिकरणम् इत्युक्ते प्रथमतया समानाधिकरणं किम् इति द्रष्टव्यम्. अत्र समानाधिकरणं घटः, ययोः समानाधिकरणं घटः, तौ समानाधिकरणौ. तौ कौ? घटत्वम् अपि च प्रतियोगिता इति समानाधिकरणौ. तदर्थं वक्तुं शक्यते घटत्वसमानाधिकरणप्रतियोगिता प्रतियोगितासमानाधिकरणं घटत्वम् इति वक्तुं शक्यते. अधुना रघुपतिमहोदय वदतु, विषयताः इति भगिन्या यदुक्तं तेषां तासां समानाधिकरण्यमस्ति वा? समानाधिकरण्यं
विषयता हा अस्ति.
कथमस्ति?
विषयता समानाधिकरणं
विषयता
नास्ति नास्ति नास्ति.
वदतु किमर्थमिति.
विषयता एकनिमिषं
घटे का नामिका
विषयता घटे प्रकरतवाक्यविषय प्रकरताख्यविषयता अस्ति. संयोगे संसर्ग वाक्यविषयता अस्ति. भूतले भूतले विशेषता इति नाम्ना विशेषता विशेषता अस्ति विषयता अस्ति.
हा तेषां तासां अधिकरणं किमिति?
असमानाः आक्चुलि
असमानाधिकरणं खलु.
असमानाधिकरणम् अस्ति.
किमर्थम्
असमानाधिकरणम् एव?
किमर्थम् इति
प्रकरत घटे वर्तते. संसर्गता संयोगे वर्तते. अपि च विशेषता नामक विषयता भूतले वर्तते. अतः ते असमानाधिकरणाः.
बहु समीचीनं महोदय. ताः असमानाधिकरणाः. हा यदि घटः तस्मिन् घटत्वं प्रतियोगिता इति स्थितिः अभविष्यत् तर्हि समानाधिकरणाः इति वक्तुं शक्यते. तथा नास्ति, असमानाधिकरणाः ताः विषयताः. द्वयोः एकमधिकरणं नास्ति इति, कुत्रापि समानाधिकरण्यं नास्ति इति वार्ता विषयतानां विषये. विषयितानां विषये किम् इति अग्रिमसप्ताहे पुनः परिशीलयामः. स्थूलरीत्या वदिष्यामि, विषयिता इति यद्यपि तिस्रः सन्ति, तिस्रः अपि विषयिताः एकस्मिन्नेव ज्ञाने भवन्ति, एकस्मिन्नेव विषयिणि भवन्ति तिस्रः अपि विषयिताः. तदर्थं विषयिताः समानाधिकरणाः इति वक्तुं शक्यते, अथवा विषयितासु समानाधिकरण्यम् इति धर्मः वर्तते. परन्तु विषयताः समानाधिकरणाः न सन्ति, असमानाधिकरणाः इति कृत्वा तासु समानाधिकरण्यं न विद्यते इति वार्ता. विषयितानां विषये इतोपि गभीरतया अग्रिमसप्ताहे परिशीलयामः. अस्तु, एतावता कोऽपि प्रश्नः?
एकं प्रश्नः अस्ति महोदय.
एकः प्रश्नः,
भूतलघटवत् जलघटवत् इति वक्तुं शक्यते. अतः भूतल जल एतत्तु विशेषणं, घट तु विशेष्यम् अस्ति.
न अत्र विशेषणम् इत्युक्ते किं महोदय? किमपि कीदृशम् इति वर्णयति खलु. सुन्दरः बालकः इति वदामश्चेत् बालकः कीदृशः सुन्दरः?
सुन्दरः विशेषणम्.
हा एवमेव भूतलं कीदृशं? भूतलं घटवत् खलु. अत्र विशेषणं किम्?
अहं चिन्तयामि भूतलम् इति विशेषणं.
कथम् इति? भूतलं कीदृशं? विशेषणम् इत्युक्ते अब्जेक्टिव्. भूतलं कीदृशम् इति वर्णयति किं घटवत्?
विषयः भूतलं तत्र वर्णयति.
विशेष्यं भूतलं, विशेषणं घटः. अवगच्छति वा? तदर्थमेव घटे प्रकारता, तदर्थमेव भूतले विशेष्यता इति वदामः.
संयोगे संसर्गता.
जलवत् जलवत् भूजलम् इति वदामिश्चेत् तत्र किं विशेषणं किम्?
जलवत्
जलवत् भूतलम् इति वदामि चेत् तत्र विशेषणं किम्?
तत्र विशेषणमपि जलवत् जलम्.
हा, जलमिति विशेषणं, जलवत् इति विशेषणवाचकं. विशेष्यं किम्? महोदय विशेष्यं किम्?
विशेष्यं तु घटं.
महोदय उदाहरणमासीत् जलवत् भूतलं.
जलवत् भूतलम्, आं महोदय.
हा,
विशेषणं तत्र तु विशेषणं जलमस्ति. भूतलं विशेष्यमस्ति.
बहु समीचीनं. तयोः मध्ये कः सम्बन्धः?
संसर्ग
संयोगसम्बन्धः.
सम्बन्धः
संयोगः इति सम्बन्धः, संयोगे संसर्गता अस्ति इति वक्तुं शक्यते
महोदय.
अस्तु
भगिनि, एकः सन्देहः तत्र घटे घटे घटे. हलो
हलो, वदतु महोदय.
घटे घटे घटत्वम् अस्ति, प्रतियोगित्वम् अस्ति, तथापि मृत्तिकत्वं द्रव्यत्वम् अपि अस्ति. सो तत्सर्वं समानाधिकरणमेव वा?
भवतः अधिकरणं किम् अधुना प्रथमतया? अधिकरणम् इति घटः किल?
आम् आं भगिनि.
घटे घटत्वम् अस्ति, घटे द्रव्यत्वम् अस्ति, घटे प्रतियोगिता अस्ति, तत्सर्वं समानाधिकरणाः इति वक्तुं
शक्यते. मृत्तिका मृत्तिकत्वं घटे घटस्य कारणं?
न, मृत्तिकत्वम् इति घटे नास्ति, मृत्तिकत्वं मृत्तिकायाम् अस्ति.
ओ
अस्तु,
धन्यवादः. धन्यवादः.
धन्यवादः. अस्तु तर्हि, अन्यः कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगयामः. अद्यतनवर्गः पुनरावलोकनः पुनरावलोकनवर्गः इति आसीत्. तर्हि कृपया पुनः एकवारं ध्वनिमुद्रणं शृण्वन्तु इति. अस्तु,
धन्यवादः.
अस्तु भगिनि, धन्यवादः.